सर्वेभ्यो नमः, स्वागतं। प्रथमतया वयं प्रार्थनां वदामः। चित्रा भगिनी।
ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ श्रीगुरुभ्यो नमः। हरिः ॐ।
धन्यवादः भगिनि। अस्तु, अद्य वयं सप्तमी विभक्तिं कुर्मः। एकनिमिषः, अहम् अन्यत् स्क्रीन् शेर् करोमि। दृश्यते वा?
आं भगिनि।
अस्तु, एकनिमिषः। अस्तु, अद्य वयं सप्तमी विभक्तिः कुर्मः। अस्तु, प्रथमतया पुनस्मरणं कुर्मः। तत्र उदाहरणं दत्तमस्ति। प्रिया भगिनी, भवती वदति वा, पठतु उदाहरणानि।
उदाहरणानि: जननी पुत्रे स्नेहं प्रदर्शयति, भगिनी भिक्षुके कृपां प्रदर्शयति, पुत्रः जनके विश्वासं करोति।
समीचीन भगिनि। अस्तु, अनन्तरं वचनम् इति दत्तमस्ति। राधा भगिनी, भवती पठतु
वचनं। फलानि वृक्षे सन्ति, फलानि वृक्षयोः सन्ति, फलानि वृक्षेषु सन्ति।
समीचीनम्। अस्तु, अनन्तरं सप्तमी विभक्तेः नियमाः पश्यामः। तत्र प्रथमनियमः, शीला भगिनी भवती पठतु। म्यूट् मध्ये अस्ति भगिनि।
भगिनि,
इदानीं श्रूयते।
सर्वेषामपि वस्तूनां कोऽपि आधारः भवति एव, एवं यः आधारः भवति तस्य सप्तमी विभक्तिः भवति।
समीचीनम्, समीचीनम्। अस्तु, द्वितीयनियमः, चित्रा भगिनी भवती पठतु।
भगिनी, केन् यु एक्स्प्लेन् इट् इन् इङ्ग्लिश् आल्सो वन्स् द मीनिङ्ग्?
आधारः इत्युक्ते किम्?
बेसिस्।
सो आल् आफ् देम् हेव् दट् रैट्?
ऐ डोण्ट् गेट् इट्।
अस्तु, एकनिमिषः, अहं लिखामि परन्तु अद्य लिखितुं न शक्नोमि। एकनिमिषः। अस्तु, अत्र किम् अस्ति चेत् कृष्णफलकं दृश्यते वा
न दृश्यते भगिनि
अस्तु एकनिमिष पुनः
कोऽपि न दृश्यते
अस्तु एकनिमिष पुनः अस्तु दृश्यते वा इदानीं
आम्
अत्र अत्र आधारः इत्युक्ते किम्
So there is a basis for the kriya, then its saptami vibhakti will come. Okay.
What does that mean, Bhagini, basis for the kriya?
Like,
Bhagini, can you give an example and explain it?
Yeah.
One second. इदानीं विभक्तिवल्लीति पुस्तके तत्र सप्तमी विभक्तिः वयं पठितवन्तः यु डोण्ट् हाव् टु ओपन् इट् रैट् नौ ऐ एम् जस्ट् पायिण्टिङ्ग् औट् तत्र एतत् किं पठितवन्तः तत्र किं दत्तमस्ति एवमेव अहम् अत्र अस्तु सर्वेषामपि वस्तूनां कोऽपि आधारः भवति इति एवं यः आधारः भवति तस्य सप्तमी विभक्तिः भवति उदाहरणमस्ति मम गृहे एकः शुनकः अस्ति तत्र गृहे इति आधारः भवति
Oh, that means where it is being done or on what it is being done. So where means inside, outside, up or down, like that, right?
Like that.
Okay, now I get it. I was trying to figure out the word for it, okay. So where or on or what the kriya is being done.
Samichinam. Anantaram, dutiya niyamaha, vrindabhagnim bhavati patatu. Radhabhagnim bhavati patatu. राधा भगिनी अन्म्यूट् करोति वा
सोरि संस्कृताध्ययने संस्कृत्याध्ययने मम महती आसक्तः अस्ति आसक्तिः अस्ति संस्कृताध्ययने मम महती आसक्तिः अस्ति इति वाक्ये विषयरूपः आधार अस्ति
अत्र विषयरूपाधारः इत्युक्ते किं विषयरूप आधारः इत्युक्ते तत्र तस्मिन् संस्कृते जनाः प्रीतिं प्रदर्शयन्ति तत्र संस्कृताध्ययने मम महती आसक्तिः अस्ति इति वाक्ये आसक्तेः आधारः संस्कृताध्ययनं किल तत्र विषयरूपाधारः संस्कृतमिति संस्कृताध्ययनम् इति विषयः अस्ति किल अनन्तरं प्रिया भगिनी भवती तृतीयं
स्निह्यति विश्वसिति इत्येतयोः गोत्वोः प्रयोगः यत्र भवति धात्वोः प्रयोगः यत्र भवति तत्र स्नेहस्य विश्वासस्य च यत् यत् पात्रं तस्य सप्तमी विभक्तिः भवति
अत्र किमस्ति तत्र माता पुत्रे स्निह्यति पुत्रे विशेषतः स्निह्यति माता पुत्रे विशेषतः स्निह्यति इति अस्ति चेत् स्निह्यति इति अस्ति पुत्रं स्नेहस्य अत्र अस्ति अस्तु अनन्तरं चित्रा भगिनी भवती
यस्मिन् अङ्गे ग्रहणं ताडनं प्रहरणम् इत्यादिकं भवति तस्य अङ्गस्य सप्तमी भवति
उदाहरणं वदतु अवगच्छति वा
हस्ते ताडितवती लैक् दट् भगिनी
अथवा सः तं केशेषु गृहीत्वा ताडितवान्
गृहणम् इस् टु होल्ड् ओर् केच् रैट्
टु टेक् न भिक्षा ग्रहणं करोति ग्रहणं टु टेक् रैट्
इस् टु होल्ड् ऐ थॉट ग्रहणं
ऐ थिंक बोत्
ओके
अत्र प्रश्नाः सन्ति वा
This last one I still didn't understand. Yasmin Ange Grahanam Tadanam Ityadikam Bhavati.
Asto. Atra Asto. Vadami. Indrajit Maya Sitam Kesheshu Grihitavan. Asto. Iti Vakye.
Oh, okay.
Itiye Tasmin Vakye Grahana Kriya Asti. तत्र ग्रहणक्रियायाः कर्मपदं सीता आम् तत्र एवं कुत्र कुत्र ग्रहणं ताडनं प्रहरणम् इत्यादिकं भवति तत्र सप्तमी विभक्तिः आगच्छति अस्तु इदानीं अत्र प्रथमः नियमः अस्ति सर्वेषामपि वस्तूनां कोऽपि आधारः भवति एवं यः आधारः भवति तस्य सप्तमी विभक्तिः भवति इदानीं शीलाभगिनी भवती एतत् नियमः उपयुज्य एकं वाक्यं वदतु प्रयत्नं करोतु
आं भगिनि एकनिमेषम्
भगिनि प्रहरणम् इत्युक्ते इस् टु अटाक् फार्
आम्
मीनः नद्योः सन्ति मीनाः नद्योः सन्ति
अस्तु
समीचीनं
आं समीचीनम् अनन्तरं द्वितीयं दादा भगिनी भवती एकं वाक्यं करोतु.
विषयरूपः आधारः संस्कृत what do you say for talk? भाषणं मम महतौ कष्टम् अस्ति.
समीचीनं अस्तु. इदानीं स्निह्यति विश्वसति इत्येतयोः धातोः प्रयोगः यत्र भवति तत्र स्नेहस्य विश्वासस्य च यत् पात्रं तस्य सप्तमीभक्तिः भवति. प्रिया भगिनी भवती वदतु.
भक्तः देवे स्निह्यति.
पुनः वदतु भगिनि.
भक्तः देवे स्निह्यति सर् भगिनि.
समीचीनं.
माता बालके स्निह्यति राइट्.
अनन्तरं यस्मिन् अङ्गे ग्रहणं ताडनं प्रहरणम् इत्यादिकं भवति तस्य अङ्गस्य सप्तमी भवति.
कुक्रः मुखे अन्नं गृह्यति.
अस्तु समीचीनम् अस्तु. इदानीं अस्तु. इदानीं वयं गीतासोपानं गच्छामः. तत्र अद्य वयं नवषष्टिः कुर्मः. तत्र
एतानि सप्तमी विभक्ति
आं
भगिनि. एतानि सप्तमी विभक्तिरूपाणि सावधानतया पठत. अस्तु. तत् इत्यस्य चित्रा भगिनी भवती पठतु.
तत् पुल्लिङ्गे नपुंसकलिङ्गे च स्त्रीलिङ्गे तस्मिन् तयोः तेषु तस्यां तयोः तासु.
सारी विच पेज आर वी रीडिंग.
69. शुड आई रीड सम मोर. ओके. एतस्मिन् एतयोः एतेषु एतस्यां एतयोः एतासु.
समीचीनम् अस्तु. इदानीं प्रिया भगिनी भवती किम् इत्यस्य अपि भवत् इत्यस्य करोतु.
किं पुल्लिङ्गे नपुंसकलिङ्गे च कस्मिन् कयोः केषु स्त्रीलिङ्गे कस्यां कयोः कासु. भवत् पुल्लिङ्गे नपुंसकलिङ्गे च भवती भवतोः भवत्सु स्त्रीलिङ्गे भवत्यां भवत्योः भवतीषु.
समीचीनं भगिनि. अनन्तरं सर्व सर्वा अस्मत् युष्मत् राधा भगिनी भवती पठतु.
सर्व पुल्लिङ्गे नपुंसकलिङ्गे च सर्वस्मिन् सर्वयोः सर्वेषु सर्व स्त्रीलिङ्गे सर्वस्यां सर्वयोः सर्वासु अस्मत् त्रिषु लिङ्गेषु मयि आवयोः अस्मासु युष्मत् त्रिषु लिङ्गेषु त्वयि युवयोः युष्मासु.
समीचीनं भगिनि. अस्तु इदानीं अहं स्क्रीन् शेर् करोमि. दृश्यते वा?
नो.
इदानीं दृश्यते वा?
आं
भगिनि.
अस्तु प्रथमं चित्रा भगिनि.
तासु लतासु पुष्पाणि सन्ति.
अस्तु द्वितीयं प्रिया भगिनि.
तस्यां कूप्यां जलं नास्ति.
राधा भगिनि.
भवत्सु कः उन्नतः?
अनन्तरं शीला भगिनि.
तस्यां कुप्यां जलम् अस्ति. भवतीषु का लिखितुं जानाति?
अनन्तरं
त्वयि उत्तमगुणाः सन्ति.
त्वयि उत्तमगुणाः सन्ति.
अनन्तरं प्रिया भगिनी.
अस्मासु विश्वासः भवतु.
अनन्तरं राधा भगिनी.
तस्मिन् उद्याने बालाः सन्ति.
अनन्तरं शीला भगिनी.
तस्यां कक्षायां छात्राः निद्रान्ति.
निद्रन्ति.
निद्रन्ति.
आम् अस्तु. अस्तु अनन्तरम् इदानीं तत्र पुटसङ्ख्या सप्तशतिः. तत्र सप्तमहाभ्यासः अस्ति. बालः एतस्मिन् विनयं प्रदर्शयति. बालः सः इत्यस्ति किं भवति? सः इत्यस्य किं भवति? सप्तमी.
तस्मिन्
बालः तस्मिन् आदरं किं प्रदर्शयति वा करोति वा प्रकटयति वा?
आधारं प्रदर्शयति.
समीचीनम्. अनन्तरं चित्रभगिनी भवती करोतु.
एषः सः आदरं सः
आदरं कृतवन्तः. वयम् आदरं कृतवन्तः. प्रीतिं करोतु.
भवान् प्रीति प्रीतिम् इस् No, I'm not able to think. One,
Bhavati, no?
Bhavati.
भवत् शब्दस्य एकवचन
भवति भवति प्रीतिं करोति
प्रकटयति
आल्सो भगिनि
आम् अस्तु अनन्तरं प्रिया भगिनी करोतु प्रिया भगिनी भवती अनन्तरं करोति वा
Sorry, Bhagini, I lost, sorry, Bhagini, I lost my screen. Tvam Vatsalyam. Tvam Vatsalyam. Tvam is Tvayi Vatsalyam. I don't know the meaning, Bhagini, of Vatsalyam.
वात्सल्यं प्रदर्शयति एन्ड् करोति बोथ् विल् बी देयर् वी केन् यूस्
त्वयि वात्सल्यं करोति वाट् इस् द मीनिङ्ग् आफ़् प्रकटयति भगिनि ऐ वास् ट्रैङ्ग् टु लुक् दट् अप् एण्ड् ऐ lost my screen
to display to display no
prakat karna na
yeah
okay
yes display also appear mast anantaram radha bhagini bhavati karutu
बालः कः कस्मिन् प्रेम करोति
समीचीनम् अनन्तरं शीला भगिनी
स्नेहं भवत्यां स्नेहं प्रदर्शयति
समीचीनम् अस्तु अनन्तरं चित्रा भगिनी चित्रा भगिनी चित्रभगिनी अस्तु प्रिया भगिनी भवती एव करोतु
नम्रताम् अर्थं किं भगिनि?
पोलैट्.
पोलैट्, ओके. सा तस्यां नम्रतां प्रकटयति. Or is it pradarshayati bhagini? I'm not sure like what the end meaning would be.
These are interchangeable, right bhagini?
Yes.
Any of them will go with each other.
Yes.
Okay.
Sorry, I couldn't unmute. I could hear you, but I just couldn't, the button didn't,
unmute
at all. Sorry. Next one, can I do? Aham Shraddham Pradarshayati. Mayi, Balaha Mayi Shraddham Prakatayati. Is that right? Okay.
Can I do the next one, Bhagini? Balaha, they will be Teshu Shankam Prakatayati. Shankam is doubtful, is it? Showing doubt?
समीचीनम्. अनन्तरं शीला भगिनी भवती करोतु.
बालः मयि श्रद्धां करोति.
समीचीनं भगिनि. करोति इति अनन्तरं चित्रा भगिनी.
भवतोः मैत्रीं करोति.
बहुवचनं भगिनी, सप्तमी बहुवचनं.
भवतु, सो इट् विल् बि भवत्सु मैत्रीं करोति और् प्रदर्शयति.
अस्तु. अनन्तरं प्रिया भगिनी.
एते सौजन्यं I'm having difficulty with the meanings, Bhagini. Saujanyam.
Gaurav is proud. Proud of something.
Saujanyam means
courtesy atva kindness.
Okay. So if we say eteshu saujanyam pradarshayati, what does that mean, Bhagini? To him or in him?
One minute.
Show kindness. Balaha eteshu.
Shows kindness to them.
Towards them.
Towards them.
अस्तु. अनन्तरं
भगिनी.
आं राजा भगिनी.
बालः तस्यां गौरवं करोति.
आं समीचीनम्. अनन्तरं
तस्यां भगिनि
ताः
बहुवचनं बहुवचनं
तासु
तेषु
ताः न तु तासा
ओ ताः
तासु
रैट् रैट् तासु
अस्तु अनन्तरं प्रिया भगिनी
भवत्याः आधारं सो भवत्याः स्त्रीलिङ्गबहुवचनं सो भवतीषु आधारं I don't know which word, Bhagini. I'm not completely understanding the meaning, so I don't know which verb fits with it.
All three, Bhavatsu, you can, right? You can use
you
all
can
three,
use them
Bhagini.
Interchangeably. You just have to choose.
Yeah, you all of them will be correct.
All the three will work, yeah.
Yes, none of them will be wrong. You can use any three verbs.
Actually, all the three will work for all the things.
So it's Bhavati show. आधारम्
आधारम् इत्युक्ते लव् अथवा फोण्ड्
ओके
लव् अथवा
ओके ओ वी जस्ट् लर्न्ड् आधारम् इस् बेसिस्
आधारम् विल् बी रेस्पेक्ट् नो आधारम् विल् बी रेस्पेक्ट्
दिस् इस् डिफरेंट दा ओके रेस्पेक्ट्
Oh, right. Respect, too, will come. Three meanings. Respect, fondness, and love.
Can I do the next one?
Astu. Karotu padni.
Etasu bhaktim pradarshayati. Etasu bhaktim pradarshayati.
Pradarshayati. Samichinam. अनन्तरं शीला भगिनी
बालः यस्मासु कृपां प्रकटयति
समीचीनम् अनन्तरं वयम् इति राधा भगिनी
बालः अस्मासु विश्वासं करोति
समीचीनम् अस्तु प्रश्नाः सन्ति वा तत्र अस्तु प्रश्नाः न सन्ति चेत् अग्रे गच्छामः अत्र अङ्गे ग्राहणं ताडनं नियमाः पठितवन्तः किल एता तदेव तत्र अभ्यासं कुर्मः अत्र कोष्टके विद्यमानस्य शब्दस्य सप्तमीविभक्तिरूपाणि यथोदाहरणं रिक्तस्थानं पूरयत उदाहरणमस्ति शत्रुः तं कण्ठः इति दत्तमस्ति तत्र सप्तमी कण्ठे करणीयमस्ति अस्तु
Can I do the first one?
अस्तु करोतु
सः भवन्तं वृक्षस्थले वक्षस्थले प्रहरति वक्षस्थले प्रहरति
वक्षस्थले प्रहरति
प्रहरति
समीचीनम् अनन्तरं प्रिया भगिनी
दुःशासनः द्रौपदीं केशाः केशयोः केशेषु पुल्लिङ्गं भगिनि
यस्
ओके के ऐ थाट् इट् वास् स्त्रीलिङ्गं केशः केशः ओके Okay, so it's Kesheshu Krahnati.
Samichinu. Anantaram, Radha Bhani.
Bhimaha Kishakam Mastakeshu, Mastake Padayati.
Mastake? Purnam Padayati. Padayati. Ashtu. samichinam. Anantaram, Srila Bhagini.
Bhima, right, Bhagini? Number three?
Four. Number four.
Bhavan, Mam, Padayoho, Himartham Praharayati. Why did you hit on my feet?
Samichinam. Anantaram, Chitra Bhagini.
Yodha, Shatrum, Udare, Tadayati. Is that right?
Astu, Anantaram, Kriya Bhagini.
Arakshakaha, Choram, Kante, Grahnati.
Samichinam. Atra Ange Grahanam Tarnam Atra Idanim Kutavantaha Idanim Prashnaha Santiva. Because when we read the rule, some people were confused. Do you understand the rule?
I'm beginning.
Now that you have seen some sentences that use it, should be easy. Idanim Tatra Avadeyamasti. Radha Bhagini Bhavati Patata Avadeyam.
Avadeyam. Yasmin Ange Grahanam Sadanam Praharanam Ityadikam Bhavati Satya Angasya Saptami Vibhaktihi Bhavati.
Samichinam. Astu. Anantaram kaha kasmin nipunaha kushalaha iti yato daharanam likhata. Atra nipuna kushaladinam prayogaha. Before we do the exercise, look down if under the exercise there is avadeya. Let's read the rule first and then we'll do the exercise. It will be easier. Yada janeshu nipuna kushalata nipunata kushalata samarthyam ityadikam prakatayamaha tada yasmin saha gunah asti tasya saptami vibhakti bhavati. Astu idanim abhyasam kurmaha pratamaha udaharanam uktva dvitiyam karotu Srila Bhagini.
Ekanimsham Bhagini, Nipunataha Kushalataha, is there a difference between the two meanings or is it the
Nipunaha,
same?
Nipunaha Kushalaha.
The both are being skilled, right? Or is it Nipuna is being expert and Kushala is being skilled? Samartyam is also being extremely skilled. Is there a difference between the three?
Nipunaha, I think is. I don't think there is, Bhagini. No, there isn't, Bhagini.
They are synonyms?
Okay. They are both. Ashtu. Karuti Srila Bhagini.
Duryodhanaha gada yuddham gada yudhyayam nipunaha.
Samichinam.
So he is an expert in that, is what it's saying, Bhagini?
Yes. Astu. Anantaram, Chitra Bhagini?
Nalaha, Paka Kalayam, Nipunaha.
Kara. अस्तु अनन्तरं प्रिया भगिनी
विदुरः विनावादनं भगिनि
नीतिशास्त्रं
नीतिशास्त्रम् ओके विदुरः नीतिशास्त्रयां नीतिशास्त्रे निपुणः
करेक्ट् अस्तु अनन्तरं
द्यूतक्रीडायां निपुणः करेक्ट् भगिनि
करेक्ट् भगिनि आम् अस्तु अनन्तरं शीला भगिनि
शकुनिः शकुनी द्यूतक्रीडा बृहन्नला नृत्यकलायां निपुणः
नृत्यकलायाम् इस् नाट् देर् न
देर् इस् देर् इस् नन् आफ् देम् स्वीटेबल्
नो वीणावादनं
वीणावादनं
निपुणा इति भवति
निपुणा ओके स्त्रीलिङ्ग
अनन्तरं चित्रा भगिनि
नकुलः अश्वशिक्षायां निपुणः इस् इट् रैट्
आम् अनन्तरं मयः इति क्रिया भगिनि
शिल्पकला
भगिनि मयः शिल्पकला शिल्पकलायां निपुणः
Is Mayaha a character's name?
I have not heard of this character's name.
Kadayuttam. So Kadayuttam was not there for anybody.
Kadayuttam was...
Duryodhanaha. Oh, okay, yeah. Duryodhanaha.
So what is it from Ayaha?
It's the Shilpa Kalayam, Pagani.
Yes, correct. Samichin, Ashtu. Atta Prashna Hasantiva. Ashtu. Hiranyam Shlokam Patamaha. Ashtu. Pratamatiya Shlokam Patamaha. Anantaram Dasya. सप्तमी कुत्र कुत्र अस्ति इति पश्यामः तस्य अनन्तरं श्लोकम् इत्युक्ते किम् इति वयं पश्यामः अस्तु अस्तु प्रथमतया कः पठति का पठति राधा भगिनी भवती पठतु
कस्तूरीतिलकं ललाट फलके वक्षस्थले कौस्तुभं नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणं सर्वाङ्गे हरिचन्दनं च शलयन् कण्ठे मुक्तावलीं गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः.
आम् धन्यवादः भगिनि. अस्तु, अत्र कुत्र कुत्र सप्तमी भक्तिः अस्ति?
ललाटफलके, वक्षस्थले, नासाग्रे, करतले, करे, सर्वाङ्गे, कण्ठे,
तावदेव.
विजयते
न अत्र. इदानीं वयं अत्रार्थं दृश्यते वा?
नो
भगिनि.
दृश्यते भगिनि?
कः पठति अर्थम्?
Can I read?
Astu Chitra Bhagini Bhavati Patato.
Yeah, meaning, salutations to Gopala, who is adorned with sacred marks of kasturi or musk on his forehead and Kaustubha jewel on his chest. His nose is decorated with a shining pearl and palms of his hands are gently folding a flute, holding a flute. The hands themselves are beautifully decorated with bracelets. His whole body is smeared with sandal paste, as if playfully anointed, and his neck is decorated with a necklace of pearls. Surrounded by the cowherd women, Gopala is shining in his middle in celebration like a jewel on the head.
प्रश्नाः सन्ति वा अत्र? अस्तु, अत्र वयं स्थगयामः. शान्तिमन्त्रं वदामः एकनिमिषः. प्रिया भगिनी भवती वदतु.
ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. गुरुभ्यो नमः. हरिः ओम्.
अस्तु, धन्यवादः भगिनि. नमस्ते.
धन्यवादः भगिनि.